इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना ह्यः नवदिल्लीस्थे भारत कृषि अनुसन्धान संस्थाने जलवायु समेकित उत्पादाधारितानां सस्यानां नवोत्तरैक शत प्रकाराणि सस्य बीजानि प्रख्यापितानि। एतेषु नवोत्तरैक शत बीजेषु चतुस्त्रिंशत् क्षेत्रीय सस्यानि, सप्तविंशतिः उद्यान सस्यानि समेत्य अन्य सस्य बीजानि सम्मिलितानि सन्ति। एतदतिरिच्य उद्यान सस्येषु फलानि, शाकानि, पुष्पाणि, औषधीय पादपाः च सम्मिलिताः सन्ति। एतेषु विषयेषु कृषक वैज्ञानिकैः सह परिचर्चां कुर्वन् प्रधानमन्त्री कृषिक्षेत्रेषु अपि मूल्यसंवर्धनस्य महत्वं सबलं प्रतिपादितवान्। कृषकैः प्रतिपादितं यत् एतानि नवीनानि सस्योत्पादकानि बीजानि अत्यधिकानि लाभप्रदानि भविष्यन्ति, यतोहि एतानि बीजानि तेषां कृषिव्ययं न्यूनीकरणं करिष्यन्ति, सममेव पर्यावरणस्य अपि संरक्षणं करिष्यन्ति। असौ प्राकृतिककृषेः लाभानि समेत्य जैविककृषिं प्रति जनानां संवर्धितविश्वासस्य विषये अपि परिचर्चां विहितवान्। असौ प्रोक्तवान् यत् जनाः जैविकखाद्यपदार्थानाम् उपभोगस्य याचनां कुर्वन्ति। कृषकैः प्राकृतिककृषिम् आधृत्य प्रशासनद्वारा विहितानां पदक्षेपानां प्रशंसाम् अपि कृता। प्रधानमन्त्री परामर्शं यच्छन् प्रोक्तवान् यत् कृषिविज्ञानकेन्द्रद्वारा कृषिकेभ्यः प्रत्येकं मासे सक्रियरूपेण तेषां लाभानां विषये जागरूकं कर्तुं च सूचना दातव्या। अमेरिकादेशस्थितायाः शॉर्ट सेल्टर हिंडनबर्ग रिसर्च इत्यस्याः संस्थायाः आरोपानां खण्डनं भारतीय प्रतिभूति विनिमय मण्डलेन कृतम् अस्ति। देशस्य अनेन अंशापण नियामकेन हितविग्रह सम्बद्धानां विषयाणां निवारणाय पर्याप्तानि आन्तरिकतन्त्राणि सन्तीति, येषु प्रकटीकरणरूपरेखा अस्वीकारस्य प्रावधानं च अन्तर्भवति। तत्र इदमपि उल्लिखितं वर्तते यत् प्रतिभूतिधारणानां तेषां च स्थानान्तरणस्य च दृष्ट्या आवश्यकाः प्रासंगिकाः प्रकटीकरणाः अध्यक्षेण यथासमयं कृताः सन्ति। मण्डलेन इदमपि प्रकाशितं यत् अध्यक्षः सम्भाव्य हितविग्रह सम्बद्धेभ्यः विषयेभ्यः अपि स्वयमेव निवृत्तः अस्ति। सेबी इत्यनेन निवेशकाः निवेदिताः यत् ते एतादृशानां प्रतिवेदनानां प्रतिक्रियां दातुं पूर्वं शान्तमनसा यथायोग्यं परिश्रमं कुर्वन्तु इति। विदेशमन्त्रिणा डॉ सुब्रह्मण्यम जयशंकरेण प्रतिपादितं यत् भारत मालदीवयोः च सहकार्यं पारम्परिक भूमिकायाः परं याति, यतः मालदीवः हिन्द महासागर क्षेत्रस्य प्रमुखः भागः अस्ति। मालदीवदेशे अड्डू पुनर्प्राप्ति परियोजनायाः, अड्डू तट संरक्षण परियोजनायाः च उद्घाटनं कुर्वन् डॉ जयशंकरः अवोचत् यत् अस्माकं विकास सहकार्यस्य उद्देश्यं मालदीवदेशस्य जनानां जीवनस्य सर्वान् पक्षान् ज्ञातुं तेभ्यः लाभान् दातुं च उपायान् अन्वेष्टुं वर्तते। रविवासरे देशस्य सप्तत्यधिकैकशतं यावत् नगरेषु चतुर्विंशत्यधिकद्विसहस्रतमवर्षस्य नीट पीजी परीक्षा सफलतया सम्पन्ना। चिकित्सा विज्ञानस्य राष्ट्रिय परीक्षामण्डलेन उक्तं यत् अस्मिन् वर्षे अभ्यर्थिभ्यः प्रायः चत्वारिंशत्यधिक पञ्चशतोत्तर अष्टविंशति सहस्राधिक द्विलक्षं यावत् प्रवेशपत्राणि प्रसारितानि। इति वार्ताः।